वाकर्थाविव सम्पृक्तौ वावर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ वन्दे पार्वतीपरमेश्वरौ पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम् वन्दे संस्कृतमातरम् सर्वेषां स्वागतं सर्वेभ्यः नमः वस्तुतः अद्य आरम्भे एव क्षमां याचे यतः मम समीपे अद्य एकं दिनं तत् गीतासोपानं द्वितीयभागस्य पुस्तकं नास्ति अतः यदि पूर्वपाठस्य सन्देहाः सन्ति पृच्छन्तु यदि शक्नोमि वदामि नास्ति चेत् वयम् अनन्तरं पश्यामः किन्तु नूतनपाठः तु एकं किमपि चित्रम् एकं मम समीपे अस्ति तत्र वाट्साप् मध्ये अतः नूतनपाठं पठितुं शक्नुमः अतः आरम्भे प्रथमं संस्कृतेन सम्भाषणं भवतु किमपि विशेषरूपेण वक्तुमिच्छन्ति निमिषद्वयं वार्तालापः कापि वार्ता अस्ति वा कोऽपि विशेषः अस्ति वा अथवा भवतां संस्कृतपठनस्य गीतासोपानद्वितीयभागस्य तत्र पुस्तकस्य अनुभवः यत्किमपि कृपया सर्वे तानिचन वाक्यानि संस्कृतेन यदि वदन्ति किञ्चित् उपयोगः भवति गीतासोपानं द्वितीयभागः इति अपि च भवतां पाठः कथमस्ति अभ्यासः कथमस्ति इत्यादिकं कृपया किञ्चित् वदन्तु लताभगिनी आरम्भं करोति वा अयो उषाभगिनी आरम्भं करोतु वदतु एतत्
नमस्ते महोदय अहं नवरात्रिविषये किञ्चित् वक्तुम् इच्छामि मम गृहे पाञ्चालिकायाः स्टाप्
अलङ्करणं कृतं
गोलु इति
कति दिनानि स्थापयन्ति
दशदिनानि
अब्बा प्रारम्भदिने एव स्थापयति वा
दिने स्थापयामि
दशमीपर्यन्तं
प्रथमदिन आरम्भं कृत्वा
दशमीपर्यन्तम् किं करोति सर्वेषाम् आह्वानं करोतु
आह्वानं ताम्बूलं
ददातु ददामि वदतु दद्मः ओके अस्तु
अनन्तरं प्रतिदिनं देवी महात्म्यं ललितासहस्रनामं
तर्हि भवत्याः पाञ्चालिक अलङ्करणानां चित्रं स्थापयतु वाट्साप् मध्ये
अहं स्थापयामि महोदय
सर्वे पश्यामः वयं न आगन्तुं शक्नुमः खलु स्थापयतु वस्तुतः संस्कृते 33 इति अन्यदपि विभागः अस्ति तत्रापि भवत्याः सुषमा भगिन्याः नाम योजयामि तत्र ये नूतनतया अस्माकं कक्षाम् आगतवन्तः इदानीं उषा भगिनी वा निरञ्जन महोदया वैभवी भगिनी एते सर्वे संस्कृत 33 इति अन्यस्मिन् वाट्साप् ग्रूप् मध्ये सन्ति तत्र द्वयोः नाम योजयामि भवती अत्र तत्र अपि स्थापयतु उत्तमम् उत्तमम् इतोपि अन्यन् अस्तु लताभगिन्याः पुत्तलिका अथवा पाञ्चालिकालङ्करणं वयं दृष्टवन्तः अनन्तरं
ह्यः कठोरा वर्षा अस्ति प्रदेशे पञ्चशाघण्टापर्यन्तं
वृष्टिः एषा वार्ता सत्यं विद्युत् पञ्चघण्टा यावत् विद्युत् नासीत् अब्बाबा
इदानीमपि वर्षायाः सम्भावना अस्ति धन्यवादः
चिन्ता नास्ति पश्यतु गभीरा वृष्टिः तत्र गभीरा वृष्टिः आसीत् पञ्चघण्टा इत्युक्ते उदये वा रात्रौ वा
मध्याह्ने
सार्ध एकघण्टा अनन्तरं वर्षायाः आरम्भम् अभवत् सत्यम् विद्युत् कदा नासीत् कस्मिन् समये
विद्युत्
प्रायः
विद्युत् आसीत् प्रायः द्विघण्टा अनन्तरं विद्युत् न आसीत्
इत्युक्ते प्रायः त्रिवादनतः अष्टवादनपर्यन्तं
सत्यमेव
प्रायः
त्रिवादनतः अष्टवादनपर्यन्तं विद्युत् न आसीत्
तर्हि किं कृतवन्तः तदा मध्याह्नभोजनं तावता समाप्तं वा न समाप्तं वा
भोजनं समाप्तमेव
रात्रिपाकः
रात्रिभोजनसमये विद्युत् पुनर्
आगता विद्युत् इति स्त्रीलिङ्गं स्त्रीलिङ्गमिति वयं पठितवन्तः अतः विद्युत् रात्रौ पुनः आगता उत्तमं तर्हि पाकसमये विद्युत् न आसीत् किल पाकं कृतवती वा
पाकं अहं मम भगिन्याः सह वसति मम गृहे
वसामि तर्हि चिन्ता नास्ति उत्तमम् अस्तु उत्तमं भगिनि अन्ये अस्तु उषाभगिन्याः गृहमपि वयं गत्वा आगतवन्तः अन्ये
अहं वदामि
नरेन्द्रमहोदय वदतु
परह्यः वयं विजयदशमी उत्सवं गृहे एव अभवत्
वयम् इत्युक्ते गृहे एव वयं सञ्चालितवन्तः कृतवन्तः
तद्दिने मम गुरुः मध्वाचार्यस्य जयन्ती अपि अभवत् ह्यः तु एकादशी आसीत् किञ्चित् फलहारं स्वीकृतवान्
एकादशी उपवासः
अद्य तु द्वादशी पारणे आसीत् अत्र तु फाल् सीज़न् अस्ति किञ्चित् ग्रीष्म इट्स् नाट् वेरि हाट्
ओके स्वल्प स्वल्प अथवा स्वल्प आततः अस्ति ओके अधिक अधिकः
नास्ति
तर्हि आतपः अधिकः नास्ति तर्हि वातावरणम् आह्लादकरं भवति
सायङ्काले सेव what is it, picking apples.
Sev phalani.
Sev phalani,
Sweet. Adha tata tasyal plucking is something sabdam. Asti vajitu vajan.
Planning to go for apple picking.
Laganam iti manu. Sev phalani vayam laganam kutavantaha iti va. पुष्पाणां प्लव अस्तु अहं पुनः वदामि कृपया हा ते फलानि स्वीकृतवन्तः
प्लानिङ्ग् टु गो फार् एपल् पिकिङ्ग्
एकक्षणं महोदय चिनोति वा
चिनोति
चिनोति पुनः द्रष्टव्यम् अत्र फलं पुष्पं चिनोमि इति अस्ति इति मन्ये तदा फलं वृक्षात् फलं चिनोमि सेवफलं वयं चिनोमि अथवा चित्तवन्तः अस्तु महोदय अनन्तरम् ओके आम् सेवफलानि कुत्र सन्ति भवतः गृहे एव वा गृहस्य उद्यानं वा अथवा कुत्रापि गतवान् वा
नो अत्र फार्म् अस्ति
सेवफलानां वा
क्षेत्रम् there are like 50 apple trees.
Panchashat.
And you can go and pick whatever apples you want, and at the end of it, they will weigh and then you pay and then come back.
सत्यं महोदय अत्र लवति इत्यपि अस्ति लुञ्चनम् अपि लुञ्चति इत्यपि पुस्तके दृश्यते लुञ्चति अपि अस्ति लवति अपि अस्ति ओके लभितवान् लभितवन्तः इति भवति प्रयोगः भवतु उत्तमम् अस्तु सेवफलानि अपि वयं खादितवन्तः उत्तमं महोदय सत्यम् अनन्तरम् अनन्तरं का वदतु सुषुमा भगिनी भवती स्वयम् आगच्छति वा इति निरीक्षणं करोमि न आगच्छतु वदतु
वयमपि नवरात्रि महोत्सवे प्रतिदिवसे मन्दिरं गतवती
गतवन्तः किल वयम् इत्युक्ते
गतवन्तः तत्र सायन्त्रं दुर्गापूजा भवति अति बहु बहु तस्य दृश्यं बहु
आह्लादकरं भवति
आह्लादकरं भवति प्रथमदिने अपि मम गुरु अपि मध्वाचार्य अस्ति तत्र भवति तस्य दिने
उत्तमम्
अद्य द्वादशी अस्ति चतुर्मासे द्विगणं व्रतम् अपि आरम्भं भवति
एवं वा ओके उत्तमम् अस्तु इतोपि अस्तु उत्तमं देवी न तत्र मध्वाचार्याणाम् इत्युक्ते तत्र किं कुर्वन्ति विशेषेण
विशेषेण मध्वाचार्य इति वायुरूपः अस्ति हनुमा भीमा मता इति अहं वदामि हनुमान् इति भीमा भीमरूप इति मध्वाचार्य इति जयदशमी दिने जन्मदिवस अस्ति मध्वाचार्य
मध्वाचार्याणाम् अत्र मध्वाचार्यस्य इति अपि प्रयोगः अपि अस्ति चिन्ता मास्तु ओके उत्तमं वैभवी भगिनी
आं महोदय नमो नमः
नमो नमः वदतु
अहं मम नगरे सहपरिवारं नागपुरनगरे गच्छामि
नगरं गतवती भूतकालः
गतवती
नगरं गतवती
नगरं गतवती पाठशालायां विरामः अस्ति that's why we went
अतः
अतः
वयं गतवन्तः सत्यं वयं गतवन्तः पाठ्यक्षं
एकसप्ताहः तत्र आस्मि
आसम् अहो परिवारे सर्वे सर्वे स्मः ओके उत्तमं
वयं बान्धवाः मिलामः अद्य अहम् आगतवती
अद्य अद्य एव आगतवती उत्तमम् उत्तमम्
धन्यवादः
उत्तमम् इदानीं तत्र गीतासोपानपुस्तके श्रद्धावान् तत्र पाकः अस्ति वा श्रद्धावान् लभते ज्ञानम् इति पाठं पठामः पूर्व अभ्यासे सन्देहाः सन्ति वा उत्तमं भवतु सत्यम् उत्तमम् यदि सन्ति चेदपि कृपया वयम् आगामिसप्ताहे पश्यामः ओके इदानीं तत्र मम समीपे पुस्तकं नास्ति अतः न शक्यते अद्य कृपया श्रद्धावान् लभते ज्ञानम् यस्य श्रद्धा भवति श्रद्धा इति शब्दस्य कः अर्थः उत्साहः ओके उत्सुकता किमपि ज्ञातव्यम् इति उत्सुकता ओके ईगर् टु नो ओके यदि अस्ति तर्हि श्रद्धा अस्ति इति अर्थः ओके यस्य श्रद्धा अस्ति सः ज्ञानं प्राप्नोति इति पाठः अस्ति अत्रापि सर्वनामशब्दाः वयं पूर्वं पठितवन्तः पुंलिङ्गम् इदानीं स्त्रीलिङ्गशब्दाः सन्ति ओके अतः कृपया एकैकः किञ्चित् किञ्चित् पठन्तु अद्य एतां प्रायः लघु अस्ति इति चिन्तयामि एतां कथां पठित्य समापयामः कृपया सर्वे किञ्चित् किञ्चित् पठन्तु उषा भगिनी आरम्भं करोतु
अस्तु भगिनि श्रद्धावान् लभते ज्ञानम् भगवद्गीतायां भगवान् श्रीकृष्णः श्रद्धां सम्यक् विवृतवान् अस्ति इयं च सात्विकी राजसी तामसी इति त्रिविधा इमां सात्विकीं श्रद्धाम् आपन् सात्विकीं श्रद्धाम् आपन्नाः जनाः देवान् यजन्ते श्रद्धायाः विषयमस्ति अत्र भगवान् श्रद्धायां विषये भगवद्गीतायां उक्तवान् श्रद्धा त्रिविधा सात्विकी राजसी रामसी सात्विकी श्रद्धा कीदृशी सात्विकी श्रद्धा श्रद्धा यदि यदि कस्यापि सात्विकी श्रद्धा अस्ति सः देवान् देवान् यजते
अथवा पूजते अस्ति
तदनन्तरम् अस्याः राजस्याः श्रद्धायाः उपासकाः यक्षरक्षांसि भजन्ते एतद् वाक्यं राजसी श्रद्धा कीदृशी इति वदति
यक्षरक्षितः इत्युक्ते यक्षाः किन्नराः इत्युक्ते कुबेरः इत्यादयः तत्र सन्ति तेषाम् आराधनं कुर्वन्ति ते न देवाः ते ओके
किञ्चित् मध्यमदेवतामस्याः अस्याः आराधकाः प्रेतान् भूतगणान् च सेवन्ते तामस्यां श्रद्धायाम् अज्ञानमस्ति अथवा आराधना अपि तदनुसारमेव भवति ते आराधकाः प्रेतान् भूतगणान् च सेवन्ति
अत्र कृपया सर्वे एतत् स्मरामः वस्तुतः भगवद्गीतायाम् अस्ति श्लोकरूपेण अत्र अतः त्रिविध तत्र श्रद्धा अत्र दर्शितवान् अतः ओके आमाम् उत्तमं अनन्तरं वैभवे भगिनी पठति वा निरञ्जनमहोदय पठति वा
पठामि आपन्नाः इत्युक्ते किं
प्राप्ताः किल आपन श्रद्धाम् आपनः ये तां श्रद्धां प्राप्तवन्तः
ओ प्राप्तवन्तः ओके आहारविषये अपि तत्र इयम् एव रीतिः सो पुनः कृष्णः उक्तवान् आहारविषये अपि सात्विकी राजसी तामसी अस्ति तस्याः सात्विक्याः श्रद्धायाः उपासकाः उत्साहवर्धकं चित्तप्रसादकरं प्रतीकरं प्रीतिकरम् आहारं सेवन्ते सो सात्विक्याः जनाः चित्तप्रसादकरं प्रीतिकरम् आहारं सेवन्ते सात्विकी आहारं सेवन्ते
इत्युक्ते यस्य खादनेन मनः प्रशान्तं भवति ये अधिकं कटुः इत्युक्ते कारं मिर्चि यदि इत्यादिकं ये इच्छन्ति ते प्रशान्तं न खादन्ति किल अतः चित्तप्रसादकरं चेत् ये खादन्ति तत् सात्विकी भवति
राजस्या तया युक्ताः दुःखशोकप्रदान् कट्वम्बललवणा
कट्वाम्लवणात्कृष्णान्
आहारं सेवन्ते
अत्र पश्यतु विभागं तत् पश्यतु महोदय कटु आम्ल लवण अत्युष्ण
अत्युष्ण
एते राजसगुणाः इच्छन्ति एतादृशम् आहारं ते इच्छन्ति ते सेवन्ते
ते इच्छन्ति एतया तामस्या श्रद्धया युक्ताश्च यातयामि गतरसे दुर्गन्धयुते च आहारे प्रीतिमन्तः भवन्ति तामसाः जनाः यातयामे गतरमे गतरस इत्युक्ते
यातयामम् इत्युक्ते प्रीवियस्डे पूर्वदिनस्य आहारं
प्रीवियस् दिने यातयामे गतरसे
इदानीं सर्वे तदेव फ्रिज् मध्ये स्थापयित्वा खादन्ति खिल
दुर्गन्धयुते दुर्गन्धयुते ओल्ड् फुड्
हा इत्युक्ते कदाचित् तस्य गन्धः अपि तत्र दही इत्यादिकमपि अस्ति तक्रं बटर्मि इति वदामः एतत् बहिः स्थापयामः द्वितीयदिने किञ्चित् दुर्गन्धः भवति तथापि केचन खादन्ति ओके तदा तादृश आहारं यदि खादामः तमोगुणप्रभावः भवति इति आहारे प्रीतिमन्तः भवन्ति अस्तु महोदय अवगतवन्तः किल अत्र हैलैटेड् वर्ड्स् सर्वे कृपया ये तत्र दर्शयन्ति बृहद् अक्षरैः तेषाम् उपरि इत्युक्ते तेषु अवधानं करणीयं ते सर्वेपि स्त्रीलिङ्गशब्दाः इति अनन्तरं वैभवी भगिनी पठति वा
आं महोदय आसां श्रद्धानां विभागेन वयं मनुष्याणां स्वभावं सम्यक् अवज्ञातुं शक्नुमः
इत्युक्ते आसाम् इत्युक्ते एतेषाम् इति अतः स्त्रीलिङ्गमस्ति श्रद्धानां विभागेन अत्र विभागं कृत्वा किमर्थम् उक्तवान् भगवान् अस्माकं रुचिः कुत्र अस्ति इति वयं परिशीलयामः तर्हि अस्माकम् आहारं तमोगुणाहारं वा रजोगुणाहारं वा सत्त्वगुणाहारं वा इति परिशीलनीयम् अवगच्छति तत् परिशीलनेन मनुष्याणां स्वभावम् अवगन्तुं शक्नुमः ओके तस्य मनुष्याणां स्वभावः तदनुगुणं ज्ञायते इत्युक्ते स्वभावः अपि पुनः त्रिविधा भवति इति
तपसि अपि अस्याः श्रद्धायाः त्रैविध्यम् अस्ति
इत्युक्ते
श्रद्धायाः त्रिविध्यम् अस्ति
अत्र श्रद्धा न तपसि तपः अपि सात्विकतपस्सु राजसिकतपस्सु तामसिकतपस्सु तपः प्रथमम् उक्तवान् तत्र श्रद्धा द्वितीयम् उक्तवान् आहारविषये स्पष्टम् इदानीं तपः विषये वदतु तपसः विषये वदतु पठतु
तया परया श्रद्धया युक्ता अफलाकाङ्क्षिणः
भवन्ति ते अनन्तरमपि पठतु ते सात्विकाः इत्युच्यन्ते
ते सात्विकाः इत्युच्यन्ते
तस्य कः अर्धः अवगतवती वा तया परया श्रद्धया युक्ताः इत्युक्ते सात्विकाः ते सात्विकाः इति उक्तवान् के सात्विकाः इत्युक्ते तया परया श्रद्धया इत्युक्ते अत्यन्त श्रद्धया ओके सुप्रीम् इति ओके अत्यन्त परया श्रद्धया इत्युक्ते अत्यन्त श्रद्धा ओके श्रद्धया युक्ताः अपि च अफलाकाङ्क्षिणः ये ते यत्किमपि कुर्वन्ति तस्य फलं न काङ्क्षन्ते अवगच्छति भगिनि फलं न काङ्क्षन्ते ओके नाट् एक्स्पेक्टिङ्ग् एनी रिजल्ट् ते सात्विकाः ओके अनन्तरं द्वितीयायाम्
अस्यां राजश्रद्धायाम् अन्तर्भूताः जनाः सत्कारमान पूजार्थं तपः आचरन्ति
इत्युक्ते द्वितीयायाम् इत्युक्ते राजसी तपः ते किं किम् अपेक्षन्ते ते सत्कार मान पूजा
पूजार्थ
रिकग्निशन अंड वर्षिप एवरीथिंग ओके एक सर्वमपि राजसिक तपः इत्युक्ते ते अपेक्षन्ते इति स्पष्टम्
आं महोदय अनन्तरं श्रद्धाम् उपाश्रिताः तु तमोरूपया आत्मपिण्डया अन्येषां नाशार्थं तप कुर्वन्ति
इत्युक्ते
तमसि श्रद्धा तमोरूपया आत्मपिण्डया नाशार्थं सदे
नाशार्थं ततः कुर्वन्ति इत्युक्ते सर्वे अन्येषां नाशः भवतु इति ते तपः कुर्वन्ति ओके अवगतम् ते यदि सात्विकाः कथं कुर्वन्ति तपः ते किमपि फलापेक्षां न कुर्वन्ति केवलं ते तपः कर्तुमिच्छन्ति भगवतः मनसि भगवन्तं मनसि कृत्वा तपः कुर्वन्ति राजसिकाः तपः कुर्वन्ति वा कार्यं कुर्वन्ति वा ते एक्स्पेक्ट् सम् रिजल्ट् ओके ते सम्माननम् इच्छन्ति ओके ते कार्यस्य रिकग्निशन् किन्तु यदि तामसिकाः भवन्ति फर् डिस्ट्रक्षन् आफ़् अदर्स् ओके अन्येषां नाशनार्थं तपः कुर्वन्ति कार्यं कुर्वन्ति ओके ते तेषां विचारः भवति अन्येषां नाशनम् अन्तिमं वाक्यं पठतु
एवम् एषा श्रद्धा त्रिविधा वर्तते तद्विषये कृष्णस्य उक्तिः एषा
इत्युक्ते एवं श्रद्धा त्रिविधा अस्ति तस्य इदानीम् अस्माकं वचनरूपेण उक्तवान् श्रीकृष्णः साक्षात् किम् उक्तवान् इति अत्र सप्तदश अध्यायस्य द्वितीयश्लोकः तृतीयश्लोकः इति अत्र दत्तमस्ति ओके एतत् तर्हि भवद्वयं पठतु लता भगिनी पठतु एकं प्रथमश्लोकं द्वितीयं सुषमा भगिनी पठतु
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा सात्विकी राजसी चैव तामसी चेति तां शृणु
तस्य विवरणं संस्कृतेन तस्य करोतु अन्वयं करोतु भगिनि
स्वस्य
तत्र न भावं मास्तु भावं भवति जानाति तत् तैः पदैः एव अन्वयक्रमं करोतु ओके प्रसाद शृणु इति अन्ते भवति वा क्रियापदं
शृणु शृणु क्रियापदं भवति देहिनां श्रद्धा त्रिविधा भवति
स्वभावजा इत्युक्ते स्वभावजा इत्युक्ते स्वभावतः इति ओके स्वयम् इति अर्थः
सात्विकी राजसी तामसी च सत्त्वं रजस्तमस्
भवतु प्रजादर् तथा वदति वा इतोपि वदति सम्यक् अस्ति सत्यं सात्विकी राजसी तामसी च ओके च इति श्रद्धा सा स्वभावजा त्रिविधा भवति तां शृणु इति ओके तां श्रद्धां वदामि शृणु शृणु इत्युक्ते किं मध्यमपुरुष एकवचनं त्वं शृणु इति ओके सा भवान् शृणोतु इति ओके अनन्तरं सुषमा भगिनी
तत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धामयोऽयं पुरुषो यो यत् श्रद्धस्त एव सः यः यो पुरुषो श्रद्धामयोऽयं श्रद्धामयोऽयं सः एव यत् श्रद्धः
श्रद्धामयोऽयं
यः पुरुषः यो पुरुषो सः यः यश् यः श्रद्धः एव
यच्छेदः इति अत्र सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत भारत इति सम्बोधनम् ओके तत्र अर्जुनस्य सम्बोधनमस्ति भारत ओके सर्वस्य श्रद्धा सत्त्वानुरूपा ओके श्रद्धामयः अयं पुरुषः यः ओके यत् श्रद्धः सः एव यः यत् श्रद्धः इति यत् श्रद्धः इति सन्धिः ओके यत् भव यत् भवति तत् इति अत्र स्वीकरणीयम् ओके यत् श्रद्धः इत्युक्ते श्रद्धावान् श्रद्धा इत्युक्ते श्रद्धावान् इति ओके भवति तत्र श्रद्धामयः अयं पुरुषः यः यः श्रद्धः स एव सः इत्युक्ते यः श्रद्धामयः पुरुषः भवति ओके स एव सत्त्वरूपानुगुणि पुरुषः इति ओके सर्वस्य श्रद्धा भवति तथा यः पुरुषः भवति तस्य सर्वस्य अपि सः श्रद्धावान् भवति इति एकवारं तत् यदि अस्ति भवतां पुस्तके अपि द्रष्टुं प्रयत्नं कुर्वन्तु सप्तदशमध्ये तृतीयश्लोकः इति अस्ति
यः पुरुषः श्रद्धामयः अयं सः एव सर्वस्य सत्त्वानुरूपा श्रद्धा भवति
सः एव सर्वस्य श्रद्धानुरूपा भवति अवगतवन्तः किल अवगतं वा सर्वेषाम् ओके इत्युक्ते श्रद्धा हा सर्वस्यापि यस्मिन् विषये श्रद्धा इत्युक्ते विषयं ज्ञातुं यस्य इच्छा भवति सः एव श्रद्धावान् इति अत्र तात्पर्यं श्रद्धामयः अयं पुरुषः अत्रापि यत् अस्ति सर्वस्य इति अपि सर्वनामशब्दः अस्ति ओके अयम् इति सर्वनामशब्दः अस्ति ओके यः सः सः इति सर्वमपि तत्र सर्वनाम इति ज्ञातव्यं अनन्तरं किञ्चित्
अहं यादृशी कस्यचित् श्रद्धा तादृशी तस्य प्रकृतिः
सत्यं यादृशी प्रकृतिः तादृशी श्रद्धा भवति वा यतः यतः पूर्वश्लोके स्वभावजा इति उक्तवान् किल स्वभावजा श्रद्धावान् इति पूर्वश्लोके उक्तवान् प्रकृतिं श्रद्धाम् अनुसृत्य प्रकृतिः भवति वा प्रकृतिम् अनुसृत्य श्रद्धा भवति वा इति तत्र तत् यतः प्रकृति किल तस्य स्वभावः इति वस्तुतः मम समीपे पुस्तकं नास्ति अतः तत्र आध्यात्मिकविषयः कथमपि तत्र यदा विश्लेषणमस्ति तथा स्वीकर्तुं शक्यते भाषाविषये तु भाषापरतया तु कोऽपि वाक्ये तु दोषः नास्ति यथा प्रकृतिः तथा श्रद्धा इति वा यादृशी प्रकृतिः तादृशः तत्र स्वभावः इति वा तादृशी श्रद्धा इति वा अथवा यथा श्रद्धा यादृशी श्रद्धा भवति तादृशी प्रकृतिः इति वा तत् यथा तत्र अन्वयः अस्ति तदार्थं स्वीकर्तुं शक्यते अस्तु अत्र अग्रे कृत्वा एकवारं परिशीलयन्तु एतानि वाक्यानि इति किमपि अत्र अस्ति एतेपि पठन्ति चेत् किञ्चित् पठन्तु यदि एकवारं तत्र परिशीलनं कुर्वन्ति तत्सर्वं गृहपाठं दातुमिच्छामि
इयं मम भगिनी
उपरि उपरि किमस्ति भगिनि तदपि पठतु एतानि वाक्यानि
एतानि वाक्यानि सावधानतया उच्चैः पठत मम भगिनी येषां स्त्री मम भगिनी अस्ति
एषा मम भगिनी तावदेव
इयं महाविद्यालये अध्यापिका अस्ति एषा महाविद्यालये अध्यापिका कार्यं
करोति पठतु पठतु सर्वम्
इमाम् अहम् आचार्ये इति आह्वयामि
इत्युक्ते
मम आचार्ये अहं गृहं आगमनार्थं प्रार्थनां
वस्तुतः भवती करोतु किन्तु अत्र वाक्ये तथा अर्थः नास्ति इमाम् अहम् आचार्ये इति आह्वयामि मीन्स् ऐ अड्रेस् हर् इति ओके ओके ऐ काल् हर् इति ओके अहं तदा वदामि इमां द्वितीयविभक्तिः ओके ओके ऐ काल् हर् एस् आचार्ये इति अत्र वाक्यम् ओके इमाम् अहम् आचार्ये इति आह्वयामि अवगतम् इत्युक्ते इयम् इति प्रथमाविभक्तिः इमाम् इति द्वितीयाविभक्तिः इति सर्वनामशब्द स्त्रीलिङ्ग वयं पूर्वम् एषा एताम् इति वयं पठितवन्तः तत् स्थाने एषा नूतन अर्थे भेदः नास्ति नूतनः शब्दः अनन्तरम् अनया पठतु भगिनि समापयतु सुष्मा भगिनि
अनया लिखितानि चित्राणि सुन्दराणि सन्ति
इत्युक्ते
अस्य लेखनं अस्य लिखितवान् चित्राणि सुन्दराणि दृश्यन्ते
इत्युक्ते अनया पुनः तृतीया विभक्तिः ओके हर् रैटिङ्ग्स् अण्ड् पिक्चर्स् ओके वाटेवर् ओके लिखितानि ओके अथवा लिखितानि चित्राणि ओके वाटेवर् पिक्चर् ओके सा लिखितवती तानि सर्वाणि सुन्दराणि ओके द पिक्चर्स् रिटन् बै हर् इति अर्थः ओके अनया अनया एतया इति
अस्यै रसगोलकम् अत्यन्तं रोचते एतस्य अस्य मधु
रसगुल्ला इति मधुरं रोचते रोचते इति शब्दः अस्ति अतः चतुर्थी विभक्तिः भवतु इति नियमः अस्ति ओके रोचते इति शब्दस्य टेस्ट् इति केवलं नास्ति लैक् इति अपि अर्थः अस्ति ओके ओके शी लाइक्स इति अर्थः अतः चतुर्थदेवस्य अस्त्यै रसगोलकम् अत्यन्तं रोचते शी लाइक्स इति आम्
अस्याः छात्राः विभत्यति
विभ्यति इत्युक्ते विभ्यति मीन्स् स्केर्ड् ओके हा अत्र पञ्चमी विभक्ति यत्र भद्यति अपि च तत्र वयम् अन्यदपि किं पठितवन्तः तत्र भयं प्राप्नोति इत्यत्र यत्र भाययति इत्यादिकमस्ति तत्र पञ्चमी विभक्तिः भवति इति नियमः ओके अतः स्केर्ड् आफ् इति अस्ति वा आङ्ग्लभाषायां तत् किन्तु अत्र पञ्चमी विभक्तिः भवति अतः तस्मात् बिभ्यति इत्युक्ते एतस्य अस्याः इत्युक्ते एषा टीचर् अस्ति किल शिक्षिका अस्ति अध्यापिका अस्ति अतः छात्राः भयं प्राप्नोति प्राप्नुवन्ति इति
अस्याः प्रियनाटकम् उत्तररामचरितम्
इत्युक्ते
उत्तररामचरितं नाटकं महिलां बहु
इच्छति हर् फेवरेट् इति वक्तुं शक्यते ओके अत्र च वस्तुतः षष्ठी विभक्ति किल पञ्चमी षष्ठी अपि अस्याः एव भवति खलु अतः अस्याः प्रियनाटकम् ओके वट् हर् लैकिङ्ग् इस् इन् उत्तररामचरितम् उत्तररामचरितम् इस् वन् आफ् द काव्यास् ओके उत्तररामचरिते तस्य इच्छा अस्ति इति
अस्यां मम महान् आदरः
रेस्पेक्ट् सत्यम् ओके इन् आर् आन् ओके तस्यां अस्यां मम बहु आदरः महान् आदरः अस्ति इति ओके सर्वे अवगतवन्तः वा
अवगतवान्
उत्तमम् अधः तदेव इदं शब्दस्य स्त्रीलिङ्गरूपाणि वयं केवलम् एकवचने वाच्यानि दृष्टवन्तः द्विवचनं बहुवचनमपि दत्तवन्तः कृपया अन्यत् सर्वमपि गृहपाठं स्वीकुर्वन्तु ओके अनन्तरम् अन्ते प्रायः प्रहेलिकाः इत्यपि तत्र सन्ति यदि शक्यते तत्र कर्तुं प्रयत्नं कुर्वन्तु तत्र रिडर्स् इति शक्यते अतः तत्सर्वं गृहपाठमेव स्वीकुर्वन्तु यदि भवताम् अनुमतिः अस्ति अहम् अद्य समापयितुमिच्छामि यदि चिन्ता नास्ति चेत् समापयामि वा
चिन्ता नास्ति
कृपया